सर्वेषां संस्कृतकक्षायां स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. धृतिक्षमादमस्तेयं शौतमिन्द्रियनिग्रहः धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्. इत्युक्ते अत्र वयं यदा कदापि स्वागतं भगिनि. यदा कदापि वयं धर्मः इति पदं शृणुमः, परन्तु धर्मः इति पदं केवलं संस्कृतभाषायाम् एव अस्ति, अन्यासु भाषासु न दृश्यते. परन्तु धर्मः इत्यस्य पदस्य अर्थः कः इति वयं चिन्तयामश्चेत् तस्य उत्तरम् एव अयं श्लोकः. अस्मिन् श्लोके आहत्य दशलक्षणानि कीर्तितानि. इत्युक्ते यस्मिन् एतानि दशलक्षणानि दृश्यन्ते सः धर्मम् आचरति इति अर्थः. अस्मिन् श्लोके दशलक्षणानि कानि इत्युक्ते धृतिः, क्षमा, दमम्, अस्तेयं, शौचम्, इन्द्रियनिग्रहः, धीः, विद्या, सत्यम्, अक्रोधः. एतानि दशलक्षणानि कीर्तितानि. परन्तु प्रथमं लक्षणमस्ति धृतिः. धृतिः इत्युक्ते धीरत्वं, धीरता अथवा धैर्यम्. इत्युक्ते धर्माचरण आचरणार्थं धृतेः आवश्यकता अस्ति प्रथमतया. तदेव अहं वक्तुमिच्छामि. परन् अनन्तरं गृहपाठं दत्तवती अहं गते सप्ताहे. अधुना किञ्चित् गृहपाठं पश्यामः. विलम्बेन अन्ये के के आगतवन्तः? अत्र पद्मिनी भगिनी अस्ति, अपि च विलम्बेन केनापि आगतं वा? अत्र भानुचैतन्यमहोदय अस्ति. भवान् भागम् ओढुमिच्छति वा महोदय? केवलं शृणोति वा? अत्र भानुचैतन्यमहोदय, भवान् भागम् ओढुमिच्छति वा? Do you want to participate or you just want to listen? Even if you want to listen, I want all of you to announce your names. Anantaram Raghupati Acharya Mahodaya.
Namaskara Bhagini.
Namaskara Mahodaya.
Namaskara.
अनन्तरं गते सप्ताहे वयं किञ्चित् अहं गृहपाठं दत्तवती. अत्र गतसप्ताहद्वयमपि वयं किं कृतवन्तः इत्युक्ते, अस्माकं पार्श्वे संस्कृतभारत्याः करपत्रं स्थापयित्वा तस्मात् कानिचन क्रियापदानि स्वीकृत्य, अपि च किमपि कर्तृपदम् अपि च कर्मपदमपि योजयित्वा वाक्यरचनां कर्तुं प्रयत्नं कृतवन्तः. तथा एव लघुवाक्यरचनाभ्यासम् अभवत्. अद्यापि तत्र संस्कृतभारत्या निर्मितं करपत्रं दृष्ट्वा किञ्चित् इतोपि अभ्यासं कुर्मः. तत्र अवशिष्टानि षट् पदानि सन्ति, तानि पदानि अपि उपयुज्य वयं किञ्चित् अभ्यासं कुर्मः. तदनन्तरं कानिचन सम्भाषणानि सन्ति, तमपि पश्यामः. अधुना वयम् अत्र भूमा भगिनी, भवत्याः पार्श्वे संस्कृतभारत्या निर्मितं करपत्रमस्ति वा?
अभ्यासपुस्तकं करपत्रं करपत्रं
करपत्रं भगिनि. किमर्थं चेत् तत्र तस्मिन् करपत्रे 36 क्रियापदानि सन्ति. क्रियापदानाम् अभ्यासं कुर्मः चेत् वाक्यरचना सुलभः भवति. अन्ततो गत्वा वयं सर्वे अपि संस्कृतभाषायां वक्तुमिच्छामः. तदर्थमेव क्रियापदानि उपयुज्य वाक्यरचनां कुर्मः चेदेव तद् अभ्यासः भवति. नो चेत् न कदापि. अतः तस्मिन् करपत्रे केवलं षट् पदानि सन्ति, तानि उपयुज्य अधुना वाक्यरचनं कुर्मः. यदि भवत्याः पार्श्वे अस्ति चेत् करोतु, नो चेत् अहम् अन्यं पृच्छामि.
अहं पुष्प अण्ड् फलानि नामानि न
अस्तु अस्तु भगिनि
अस्ति
चिन्ता मास्तु. अत्र रघुपति आचार्यमहोदय भवतः पार्श्वे अस्ति वा करपत्रम्?
तृतीयं कर भगिनि. एकनिमिषं रोदिति
तदेव
रोदिति
एकं वाक्यं रचयेत्
शिशुः रोदिति
उत्तमं.
शक्नोति
नमस्ते भगिनि.
शक्नोति सः संस्कृतं पठितुं शक्नोति.
उत्तमं. तत्र स्थगयतु महोदय. किमर्थं चेत् तत्र शक्नोति इति पदस्य एकं वैशिष्ट्यम् अस्ति. किमर्थं चेत् तत्र एकाकितया तस्य उपयोगं न कुर्मः. इत्युक्ते सः शक्नोति, सा शक्नोति न वदामः. केवलम् अन्यं क्रियापद अन्येन क्रियापदेन सह एव तस्य उपयोगं कुर्मः. यथा भवान् उक्तवान्, भवान् जानाति, परन्तु अन्येषां कृते अहं वदामि. अत्र शक्नोति इति पदम् अन्येन क्रियापदेन सह एव वयं तस्य उपयोगं कर्तुं शक्नुमः. इत्युक्ते यथा अहं कार्यं कर्तुं शक्नोमि, अहं पाठं पठितुं शक्नोमि, अहं गीतं श्रोतुं शक्नोमि, तथा एव शक्नोति इति पदस्य उपयोगः भवति. करोतु महोदय. अनन्तरम्
आनयति. अहम् आपणतः शाकानि आनयामि.
यदि शाकः यदि पदं शाकः अस्ति चेत् शाकान् आनयामि. यदि पदं शाकं पुंलिङ्गे अपि च नपुंसकलिङ्गे अपि अस्ति पदम्. अतः यदि शाकानि इति नपुंसकलिङ्गपदमस्ति चेत् भवान् यदुक्तवान् तत् सत्यमेव.
पुल्लिङ्गरूपं
अहं अन्यस्मिन् पुस्तके दृष्टवती. शाकः इति पदमपि अस्ति. अतः
शाकाहारी
करोतु. अन्यं
क्रीणाति. बालकः क्रीडाङ्गणे क्रीणाति. निन्दति. आरक्षकः चोरं निन्दयति. निन्दति.
अत्र महोदय पश्यतु, भवान् उक्तवान् निन्दति इति पदमस्ति, अपि च निन्दयति अस्ति. तयोर्मध्ये भेदः अस्ति वा?
हा, निन्दयति प्रेरणार्थक निन्दयति.
उत्तमं. प्रेरणार्थे निश्चिते वदामः. अत्र तयोर्मध्ये भेदः अस्ति, निन्दति निन्दयति. उत्तमम्. अन्यं करोतु, परन्तु विषयान्तरमस्ति. केवलं वदामि. वदतु अनन्तरं.
लक्ष्मी भगिनी, निन्दति निन्दयति अन्तरं वाट् इस् इट्?
परन्तु अत्र विषयान्तरमस्ति. केवलं महोदय भवान् वदतु. रघुपति महोदय
निन्दयति पाठयति पठति पाठयति निन्दति निन्दयति प्रेरणार्थकः वाट् इस् पाठयति वेन् यु टीच् समवन् पाठयति.
उत्तमम्. अत्र अहम् एकम् उदाहरणं ददामि. अहं पाठं पठामि, अहं पाठं पठामि. यदि अहं भवन्तं पाठयामि, अहं पाठं भवन्तं पाठयामि इत्युक्ते अहं स्वयं प्रथमं
वाक्यं अन्यान् पाठय
तावदेव उत्तमम् इत्युक्ते पठामि तस्मिन् वाक्ये अहं स्वयं पठामि पाठं पठामि. परन्तु द्वितीयं वाक्यमस्ति अहं संस्कृतपाठं पाठयामि इत्युक्ते तस्मिन् वाक्ये अहम् अन्यान् पाठयामि. अन्यान् छात्रान् पाठयामि, अन्यान् छात्रान् पाठयामि. अवगतवती वा भगिनी?
आम् लक्ष्मी. आम्
अनन्तरम् अत्र
हरि ओम् लक्ष्मी, लक्ष्मी भगिनी हरि ओम्. अहं भानुचैतन्य वदामि. पूर्वसमये वेब् माध्यमे मया वक्तुं न शक्नोमि तत् समये, अतः एव फोन् कनेक्षन् अस्ति.
उत्तमं. भवान् प्रथमवारम् आगतवान् इति भाति. स्वागतं महोदय.
हरि ओं महोदय. अहम् आगतवान् एतत् त्रीणि कक्षानि, किन्तु अहं भागं सम्यक् भागं न आक्टिव् पार्टिसिपेशन् न इति.
अस्तु अस्तु. अनन्तरम् अत्र भवतः दूरवाणीसङ्ख्या वा 9295?
न महोदय, 9701 एतत् मेर मम.
कस्य स्वागतं भगिनि, विलम्बेन आगतवती वा?
नेट् किञ्चित् क्लेशः भवति इदानीं, किञ्चित्
उत्तमं भगिनि. अनन्तरं अत्र अन्ये के आगतवन्तः विलम्बेन?
गीता, नमस्ते भगिनि.
गीता भगिनी उत्तमं,
नमस्ते.
नमस्ते. अधुना पश्यामः. यदि भूमा भग अनन्तरं रघुपति आचार्य अन्तिमं वाक्यं करोतु महोदय.
आह्वयति, अहं मम मित्रं गृहम् आह्वयामि.
उत्तमं. तस्मिन् वाक्ये
गृहे आह्वयामि, गृहम् आह्वयामि, मम मित्रं गृहं, साधु वा? गृहे गृहम् आह्वयामि, अहं मम मित्रं गृहम् आह्वयामि.
भवान् किं चिन्तयति,
सम्यक् वा न वा इति? गृहे गृहे सप्तमीय द्वितीया विभक्ति.
अत्र पश्यतु महोदय, पश्यतु अत्र आह्वयति इति क्रियापदं द्विकर्मकक्रियापदं. भवान् यत् यदुक्तवान् तत् सत्यमेव, सम्यक् एव. अत्र अहं मम मित्रं गृहम् आह्वयामि, तस्मिन् पदे अहं कर्तृपदम्, अपि च मम मित्रम् एकं कर्मपदं, गृहम् अन्यत् कर्मपदम्, आह्वयामि क्रियापदं. परन्तु तत्र तस्मिन् द्विकर्मकवाक्यमस्ति, तथा तत्र प्रधानकर्मपदम् अपि च गौणकर्मपदम् इति वदामः. यदि प्रधानकर्मपदं तथा एव तिष्ठति, परन्तु गौणकर्मपदं अन्यकर्मपदम् अन्यासु विभक्तिषु अपि वक्तुं शक्नुमः. परन्तु तत् विषयान्तरमस्ति. यदि वयं द्विकर्मकवाक्यानि कथं रचनीयानि इति वयं पश्यामश्चेत् तदा अहं वदामि. अधुना नास्ति, अधुना तस्य विषये न चिन्तयामः. धन्यवादः महोदय.
गृहम् आह्वयामि, मित्रम् आह्वयामि.
उत्तमम्. अनन्तरं कः करोति? सुचित्रा भगिनी, भवती करोति वा?
महोदय निन्दति, निन्दयति, किं कः भेदः?
तदेव तदेव भगिनि, अहं माता निन्दति, निन्दयति अपि निच् रूपमेव अन्यान् प्रेरयित्वा कार्यं तदर्थमेव एकं श्लोकमस्ति कर्ता कारयिता चैव प्रेरकश्च अनुमोदकः सुकृते दुष्कृते चापि चत्वारः समभागिनः
भगवद्गीता
परन्तु एकवारं भगवद्गीतायां नास्ति महोदय तत्तु एकम् अन्यम् अन्यः श्लोकः परन्तु सर्वे शृण्वन्तु उत्तमः श्लोकः एव एषः कर्ता कारयिता चैव प्रेरकश्च अनुमोदकः सुकृते दुष्कृते चापि चत्वारि चत्वारः समभागिनः दट् मीन्स् द वन् हू डस् द एक्षन् द वन् हू मोटिवेट्स् हिम् द वन् हू एन्करेजेस् अण्ड् द वन् हू पार्टिसिपेट्स् इन् दट् इट् हेस् डिफरेण्ट् मीनिङ्ग्स् आल् आफ़् देम् विल् गेट् ईक्वल् शेर् वेदर् इट् इस् अ गुड् डीड् आर् बेड् डीड्
सत्यं भगिनी
भगिनी किञ्चित् प्रेषयतु इदानीं श्लोकमेव भगिनी
we are all doing the good thing that's why we are all samabhaginah we are all doing good thing uttamam vishantram asti
anyam aagvaiti vikarmaka dhatu
chajit bhagini atra अस्माकं कृते कानिचन कार्याणि सन्ति तत् त्यजतु अन्यस्मिन् दिने वयं कुर्मः अत्र सुचित्रा भगिनी सुचित्रा भवती करोति वा अत्र षट् क्रियापदानि सन्ति षड् वाक्यानि श्रावयतु भवत्याः पार्श्वे भवत्याः पार्श्वे
अस्ति करोतु इन्वैट् आवयति
प्रथमं पदमस्ति पश्यतु भगिनि प्रथमं पदमस्ति रोदिति
रोदिति ओके बालिका रोदति सः रोदति
पश्यतु क्रियापदं रोदिति
रोदिति ओके रोदिति अहं रोदिमि ओके रोदिमि वयं रोदिमः
भगिनि भगिनि अत्र यदि भवती बहुवचने वक्तुमिच्छति चेत् रुदिमः
रोदिमः
अत्र
रुदिमः रुदिमः
पुनः करोतु तदेव वाक्यं
वयं रुदिमः
रुदिमः उत्तमम् अहं कानिचन पदानि ददामि भवती इच्छति चेत् कानिचन नूतनानि वाक्यानि रचयतु पुत्रः
पुत्रः पुत्रं रोदिति
अत्र पश्यतु भगिनि रोदिति अत्र रोदिति इति क्रियापदं रुद् इति धातुतः आगच्छति परन्तु अत्र रोदिति इति क्रियापदम् अकर्मकक्रियापदम् इत्युक्ते कर्मपदं न कदापि स्वीकरोति यथा हसति इव इत्युक्ते अत्र भवती वाक्यं रचयितुम् इच्छति चेत् पुत्रः रोदति पुत्रः रोदिति अथवा शिशुः रोदिति वदामः तस्य कः रोदिति शिशुः रोदिति परन्तु किं रोदिति न वदामः तत्र किमर्थं रोदिति किमर्थं हसति किमर्थं किमर्थं तदेव तावदेव वयं प्रष्टुं शक्नुमः इत्युक्ते अत्र न कदापि एतत् क्रियापदं कर्मपदं स्वीकरोति अतः वाक्यं वाक्यं किं भवति किञ्चित् समीकृत्य वदतु पुत्रः भवती अवगतवती वा अहं यद् उक्तवती Yes. If you want, I can explain in English. I will try to explain in
English. A little bit, Bhagini, yes.
Aham vadami. Actually, this is, this kriya, this verb doesn't accept karma padam.
Mm-hmm.
And it is called akarmaka kriya padam. And you can only ask, who is weeping?
Okay.
Or else you can ask, why he's weeping? इदानीं भवती यत् केवलम् अकर्मकक्रियापदम् इति मनसि स्थापयतु. जस्ट् रिमेम्बर् दट् दिस् इस् ए अकर्मकक्रियापदं, दट्स् आल्. दट् मीन्स् बिकास् इट् इस् अकर्मकक्रियापदम्, इट् विल् नेवर् एक्सेप्ट् एनी कर्मपदं करोतु. अतः अहं पदं ददामि केवलम् अभ्यासार्थं. बालिका
रोदिति.
उत्तमं. माता
रोदिति.
पिता
रोदिति.
पुत्री
रोदिति.
अहं
रोदिमि. अहं रोदिमि.
उत्तमं. वयं
रुदिमः.
रुदिमः. पश्यतु भगिनि, अत्र रुद् इति धातुतः, रुद् इति धातुतः आगच्छति. अतः रुदिमः. धातुतः इत्युक्ते एव्रि वर्ब् विल् हाव् इट्स् ओन् रूट्. क्रियापदस्य मूलरूपमस्ति धातुः इति वदामः. तथा एव नामपदस्य मूलरूपमस्ति तत् किं? नामपदस्य रूपं किम् इत्युक्ते प्रातिपदिकम् इति वदामः. क्रियापदस्य मूलरूपं धातुः, नामपदस्य धातुरूपं, नामपदस्य मूलरूपं प्रातिपदिकम्. That means a noun will have its own root and a verb also has its own root. The original form of the verb is called dhatuh. Atra roditi iti kriyapadam rud dhatutah agacchati parantu akarmaka kriyapadam. Karotu bhagini, kaha roditi iti eva vayam vaktum shaknamaha parantu na kadapi kim roditi navadamaha. किमर्थं रोदिति तस्य उत्तरमेव वयं प्राप्तुं शक्नुमः. अनन्तरं द्वितीयं क्रियापदं द्वात्रिंशत् शक्नोति. करोतु कानिचन वाक्यानि.
शक्नोति. सीता संस्कृतभाषणं शक्नोति.
पुनः वदतु.
सीता संस्कृतभाषां संस्कृतं भाषा शक्नोति. इस् एबल् टु वद. सीता संस्कृतभाषां इस् एबल् टु टाक्. वदति. ओके, सो सीता संस्कृतभाषायां वदति शक्नोति. इस् एबल्
टु टाक्. पश्यतु भगिनि, अत्र पश्यतु. अत्र यु केन् नेवर् यूस् दिस् शक्नोति क्रियापदम् अलोन् आल् बै इट् सेल्फ़्. You can never use this shaknoti padam all by itself. Chukte ekakitaya tasya upayogam na kurmaha. Anyena kriyapadena saha eva tasya upayogah bhavati. Yadha bhavati uktavati. Aham samskruta bhasham patitum shaknomi.
Patitum shaknomi.
I can, angla bhashayam vadutu tasya ardha kaha. Aham samskruta bhasham patitum shaknomi.
I can speak in English.
अथवा अहं संस्कृतभाषया अपि वक्तुं शक्नुमः. अहं संस्कृतभाषया वक्तुं शक्नोमि.
वक्तुं
वक्तुं शक्नोमि.
okay.
तस्य अर्थः कः आङ्ग्लभाषायां वदतु. अहं कार्यं कर्तुं शक्नोमि.
ऐ एम् एबल् टु डू वर्क्.
कार्यं कर्तुं शक्नोमि, पाठं पठितुं शक्नोमि, अहं सः गीतं गातुं शक्नोति. दट् मीन्स् यु केनाट् यूस् दिस् दिस् इस् आल्मोस्ट् लैक् केन् इन् इङ्ग्लिश् यु से ऐ केन् स्टडि, ऐ केन् रीड्, ऐ केन् कुक्. That you generally never say I can. You can what? Did you get it?
Yeah. Okay. So if I can play with a ball. Okay. अहं क्रीडां क्रीडां क्रीडितुं शक्नोति.
क्रीडां करोतु. उत्तमं वाक्यम्, उत्तममेव. किञ्चित् समीकरोतु पुनः.
अहं क्रीडां क्रीडितुं शक्नोमि.
उत्तमं. तत्र क्रीडितुम्
अहं क्रीडितुम् ओ ओके क्रीडितुम् ओके क्रीडितुम् ओके ऐ एम् जस्ट् राइटिंग इट डाउन भगिनी, दैट्स व्हाई इट्स टेकिंग टाइम.
उत्तमं. उत्तमं.
व्हाट आर यू सेइंग? सो आई डोंट वांट टू मिस दिस. ओके क्रीडितुम् ओके. नेक्स्ट वन इज आई कैन डांस. अहं नाट्यं
कर्तुं
शक्नोति. ओके नाट्यं कर्तुं. ओके
भवती पुनः वदतु, पुनः वदतु.
अहं नाट्यं कर्तुं शक्नोमि.
उत्तमं. तावदेव.
नाट्यं नर्तितुं वक्तुं शक्नोमि.
तदपि समीचीनं भगिनि. नाट्यं नर्तितुं नृत्यति. नृत्यति इत्यस्य तुमुन्नन्तरूपम्. एतानि तुमुन्नन्तानि. तुमुन्नन्तानि पठितुं गन्तुं श्रोतुं आगन्तुम् एतानि तुमुन्नन्तानि. भवती यदुक्तवती तदपि समीचीनमेव. नर्तितुं नाट्यं कर्तुं
नर्तनं कर्तुं नर्तनं कर्तुं.
उत्तमम्. अनन्तरं भगिनी सुचित्रा भगिनी करोतु. नो चेत् वयम् उपयोज करोतु. एकं वाक्यं रचयतु.
वयं गीतं गातुं शक्नोमः.
उत्तमं. पुनः पुनः वदतु. समीचीनमेव. केवलं
वयं गीतं गातुं शक्नोमः.
उत्तमं.
वयं वि केन् रीड्. वयं पाठं पठितुं शक्नोमः.
पाठं पठितुं शक्नुमः. उत्तमम्. अनन्तरं आनयति इति क्रियापदमस्ति. भवत्याः पार्श्वे कानिचन वाक्यानि सन्ति चेत् वदतु.
ओके आनयति. मदर् ब्रिङ्ग्स् फूड्. ओके माता भोजनम् आनयति.
उत्तमम्. माता भोजनम् आनयति. अहं कानिचन पदानि ददामि, भवती वदतु. शाकः बालिका
बालिका शाकः स्यूतम् आनयति. ओर् शाकं बालिका शाकम् आनयति जस्ट् शाकम् इस् स्कूल् रैट् और्
शाकम् इत्युक्ते वेजिटेबल्स्
ओ शाकम् ओके ओके बालिका शाकम् आनयति
बालिका शाकं शाकम् आनयति बालकः दण्डः
बालकः दण्डम् आनयति
बालिका चषकः
बालिका चषकम् आनयति
अहं
पुस्तकम् आनयामि वयं धनम् आनयामः
आनयामः उत्तमम्
आनयामः
अनन्तरं महिला जलम्
महिला जलम् आनयति
तरुणः घटः
तरुणः घटहम् आनयति
पुनः
तरुणः घटहम् आनयति
किञ्चित् सम्यक् नास्ति भगिनी चिन्तयित्वा वदति वा नो चेत् कः समीकरोति तरुणः कर्तृपदं घटः इति घटः इति पदस्य घट् कर्मपदं भवति वदतु भगिनि घटं
घटम् ओके तरुणं घटम् आनयति
उत्तमं कः आनयति
घटम् आनयति
न न
कः कः वेर् ओके
न न भगिनि भगिनि शृणोतु शृणोतु कः आनयति इत्युक्ते भवती जानाति भवती जानाति एव अत्र पश्यतु अत्र पश्यतु पश्यतु भवान् भवती जानाति सः कः एषः कः भवान् कः इति जानाति इत्युक्ते भवान् कः इत्युक्ते किम्
भवान् कः
हू आर् यू ओके तथा एव अत्र अहं पृच्छामि कः आनयति
तरुणम् आनयति
तरुणः इति तरुणः
आनयति
किम्
आनयति घटम् आनयति
उत्तमं घटम् आनयति कः आनयति चेत् तरुणः आनयति किम् आनयति घटम् आनयति तावदेव अनन्तरं तण्डुलः पुरुषः तण्डुलः पुरुषः इति कर्तृपदं तण्डुलः
कर्मपदम् ओके पुरुषः तण्डुलम् आनयति तण्डुलम् आनयति
तण्डुलम् आनयति तण्डुलः इत्युक्ते जानाति वा
रैस् ओके
तण्डुलः इत्युक्ते रैस् उत्तमम् अनन्तरं उत्तमं भगिनि अनन्तरं भवती अन्यानि वाक्यानि अपि कानिचन वाक्यानि श्रावयतु निन्दति अपि च आह्वयति
निन्दयति आह्वयति ओके
निन्दति पश्यतु भगिनि निन्दति निन्दति
हि अक्यूसेस् हर् आफ् लैङ्ग् सो सः
अहं वदामि पदानि अहमेव ददामि पदानि माता वदतु
माता माता निन्दति
उत्तमं तत्तु लघुवाक्यं माता निन्दति माता कं निन्दति कं निन्दति इत्युक्ते शिशुः शिशुः इति पदं योजयित्वा वदतु
माता शिशुं निन्दति
वदतु पुनः
माता शिशुः निन्दति
माता शिशुं निन्दति
शिशुम् ओके माता शिशुं निन्दति
पिता बालकः
पिता बालकं निन्दति
पिता बालकं निन्दति
बालकम्
अनन्तरम् अध्यापकः शिष्यः
अध्यापकः शिष्यकं निन्दति
भगिनी अध्यापकः इति कर्तृपदं शिष्यः इति शिष्यः इति
कर्मपदं शिष्यम् ओके अध्यापकः शिष्यं निन्दति
उत्तमं तावदेव अनन्तरम् अन्तिमं क्रियापदम् आह्वयति करोति वा कानिचन वाक्यानि
आह्वयति इन्वैट्स् मित्रम् आह्वयति मित्रं गृहम् आह्वयति मित्रम् अहं गृहम् आह्वयति
अहं मित्रं गृहम्
आह्वयामि
उत्तमं भवती एव समीकृतवती उत्तमम् अनन्तरम् अध्यापिका बालिका
अध्यापिका बालिका आह्वयति
उत्तमं बालिका अग्रजा
बालिका अग्रजाम् आह्वयति अग्रजा मतलब
अग्रजा यः या अग्रे जायते सा अग्रजा
ओके
द वन् हू इस् बोर्न् बिफोर्
ओके
अग्रजः अग्रजः इति पुंलिङ्गपदम् अग्रजा स्त्रीलिङ्गम् అంటే ఎల్డర్ వన్ అగ్రజా అగ్రజా అనుజా వదతు
అగ్రజా అనుజా హానయతి
ఆహ్వయతి అత్ర 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 క్రియాపదం ఆహ్వయతి
హాఫయతి ఓ సారీ హాఫయతి
ఆహ్వయతి భగిని
ఓకే ఐ థాట్ the last class you said if it is her you know it comes at the after the alanta matra like so
atra pashyatu bhagini aham vadami punah vadami yadi hakarat pare nakar hava makar hava that means that rule is applicable only to when hakaram is followed by ma or na
okay.
And that that rule is not applicable to all other words it is applicable pashyatu atra that rule is applicable when hakaram is followed by ma or na atra hakaram vakara hasti atah उत्तमं धन्यवादः भगिनी सतीश् महोदय भवान् करोति वा कानिचन वाक्यानि रचितवान् वा गृहपाठरूपेण महोदय सतीश् महोदय अस्ति वा नो चेत् कः करोति महोदय
लक्ष्मी भगिनी अहं करोमि
करोतु
क्रियापदानि यु हेव् टु
टेल् मी भगिनी रोदिति करोतु भगिनि
रोदिति शिशुः क्षीरार्थं रोदिति
उत्तमं शक्नोति
शक्नोति बालकः पठितुं शक्नोति
उत्तमम् आनयति
आनयति अहं भोजनार्थम् आपणात् शाकानि आनयामि
उत्तमं क्रीणाति
क्रीणाति मीन्स्
क्रयणं क्रयणं
ओके 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 मम भ्रातरः भ्राता मम भ्राता आपणात् शाटिकायां आनयति
पुनः किञ्चित् समीकरोतु भगिनी
भ्राता मम भ्राता आपणात् शाटिकाम् आनयति
उत्तमम् अधुना समीकृतवती भवती शाटिकाम् आनयति
द्वितीया विभक्ति ओके
निन्दति
निन्दति माता पुत्रीं निन्दति
आह्वयति
अहं मम मित्रं भोजनार्थम् आह्वयामि
उत्तमम् उत्तमं भगिनि धन्यवादः यदि भवन्तः कानिचन वाक्यानि रचितवन्तः चेत् श्रावयन्तु इफ् यु वाण्ट् टु रीड् युवर् सेण्टेन्सस् जस्ट् आर् एल्स् वी केन् गो टु द अदर् टापिक् अधुना वयं किं कुर्मः इत्युक्ते अत्र एकं सम्भाषणम् अस्ति अभ्यासपुस्तके सम्भाषणं प्रति गच्छामः अत्र सम्भाषणे वस्त्रापणे चतुर्दशे पुटे सर्वे अभ्यासपुस्तकम् उद्घाटयन्तु सर्वेषां पार्श्वे पुस्तकम् अस्ति चेत् अत्र चतुर्दशे पुटे चित्रं दृष्ट्वा कानिचन वाक्यानि रचयामः तत्र रिक्तस्थानानि सन्ति कः कर्तुम् इच्छति प्रथमतया अत्र भगिनी करोतु प्रथमवाक्यं किं अत्र अत्र पश्यतु भगिनि अत्र अहम् एकं किञ्चित् वक्तुम् इच्छामि साधारणतया वयमपि वस्त्राणां क्रयणार्थं वस्त्रापणं गच्छामः तथा एव अत्रापि अस्मिन् चित्रे त्रयः जनाः सन्ति पतिः पत्नी अपि च विक्रेता पतिपत्नी द्वयोर्मिलित्वा वयं दम्पतिः इति वदामः यदा वयमपि आपणं गत्वा वस्त्राणां क्रयणं कुर्मः तथा एव अत्रापि दम्पतिः आपणं गत्वा वस्त्राणि क्रेतुम् इच्छति तत् चित्रं दृष्ट्वा अधुना वयं कानिचन ज्ञातानि पदानि कानि अत्र मास्तु आवश्यकं पर्याप्तं स्वीकरोतु इति चत्वारि पदानि योजयित्वा अपि च अत्र सूचनाम् एव चत्वारि पदानि दत्तानि यथा शाटिका चोलः युतकम् ऊरुकम् इति चत्वारि पदानि अपि तस्मिन् सम्भाषणे भवेयुः इति सूचना दत्ता अस्ति अतः तानि पदानि अपि योजयित्वा वाक्यरचनां कुर्मः अधुना अत्र प्रथमतया चतुर्दशे पुटे महोदय चतुर्दशे पुटे 14 पेज् 14
2.3
न दृष्टवान्
विक्रेता इस् आकारान्त पुल्लिङ्ग
विक्रेता अत्र पश्यतु भगिनी यदि भवती ज्ञातुमिच्छति चेत् विक्रेता इति पदं रुकारान्तपदम् अत्र यदि भवती जानाति चेत् माता पिता
भ्राता
तथा एव वक्ता श्रोता
जामाता
तथा एव अत्रापि विक्रेता विक्रेता इति पदस्य स्त्रीलिङ्गं किम्?
विक्रेतृ इस् दि पुल्लिङ्ग.
कः वदति विक्रेता इति पदस्य स्त्रीलिङ्गरूपं किं भवति? किञ्चित् ऊहां करोति. विक्रेता इति पदं पुंलिङ्गपदं विक्रेत्री.
विक्रेत्री
उत्तमं. विक्रेत्री उत्तमम्. अनन्तरं
प्रातिपदिकं किं? प्रातिपदिकं किं स्त्रीलिङ्गपदे
भगिनि? विक्रेत्री इति पदं नदी शब्दवत् कुर्मः.
ओ ऐ सी. विक्रेत्री. So it is not, no, but see, Rukaranta Pullinga is Vikreta, Prathama Vibhakti, Ekavachanam. So Sreelinga Prathama Vibhakti, Ekavachanam, Vikretri. So the Pratipadikam is what for that?
Tatsya Rupam, Rupani, Yadha Nadi Vandeva Bhavati.
Nadi, I see. So it will not be Rukaranta. It is Ikaranta, it is not Rukaranta for female, feminine.
Tatha bhavati. Tatyajitu, atra prathama vakyam asti. Prathama vakyam kim likhitavati bhavati?
Tani satish vakyam. Kim tam
mam likhitavati.
Pahasvi?
Kshamitam bhagini.
Vaya vakyam prayatnam kar.
Karotu bhagini. Prathama vakyam kim bhavati? Kim likhitavati?
Patni is asking the Vikreta. Apane kim kakas satika kam, what do you say? Kam satikam? What yes, sarees you have? What kind of sarees you have?
उत्तमं. तदेव. यदि यदि भवती तद् वक्तुम् इच्छति चेत् तत्र वयं किं वदामः? महोदय, स्वागतम् अथवा सुप्रभातम् अथवा नमस्कारः इति उक्त्वा अनन्तरं भवतः आपणे उत्तमानि सन्ति, उत्तमानि वस्त्राणि सन्ति वा? अत्र नूतनाः शाटिकाः अपि च नूतनाः चोलाः अथवा नूतनानि ऊरुकानि अपि च नूतनानि युतकानि सन्ति चेत् दर्शयतु.
कृपया
दर्शयतु. उत्तमं, धन्यवादः भगिनि.
भवान् आपणे
यदि भवती किं वदति, भवतः नाम किं, तथा एव अत्र भवतः आपणः, भवतः आपणे उत्तमानि वस्त्राणि सन्ति चेत् दर्शयतु इति पत्नी पृच्छति. तथा विक्रेता किं वदति? भगिनी वदतु, वंशीसुधा भगिनी, विक्रेता किं वदति साधारणतया?
श्रूयते वा भगिनि?
श्रूयते भगिनि.
विक्रेता वदति मम पार्श्वे सर्वे अपि नूतनानि सन्ति.
यदि उत्तमानि सन्ति वा नूतनानि सन्ति वा तत्तु अन्या वार्ता, परन्तु सः साधारणतया सः किं वदति इत्युक्ते मम पार्श्वे सर्वाणि सन्ति इति एव सः वदति. भवत्याः कृते किम् आवश्यकम् अथवा सः वदति भवती किं क्रेतुमिच्छति अथवा भवती किमिच्छति किं क्रेतुमिच्छति? अनन्तरं अत्र अत्र पश्यन्तु, अत्र युवाभ्यां किं दर्शयानि इत्युक्ते किं दर्शयानि, वाट् केन् ऐ शो फर् यू, वाट् केन् ऐ शो फर् किं दर्शयानि इत्युक्ते तत्र लोट्लकाररूपं, उत्तमपुरुषे लोट्लकाररूपम् आगच्छति. उत्तमम्. अनन्तरं किमस्ति, भवती एव करोतु. धन्यवादः भगिनी. सतीश् महोदय, भवान् अस्ति चेत् वदतु
महोदय. अहं युतकं क्रीणितुम् इच्छामि. अहम् उत्तमं युतकं क्रीतुम् इच्छामि. किं भवान् मां दर्शय विक्रेता. ओ, नानाप्रकाराणि युतकानि सन्ति. इदानीं दर्शयामि.
एकं वाक्यम्, इदानीम् एव दर्शयामि वा? इदानीम् एव दर्शयामि, तदपि समीचीनम्. भगिनी वदतु.
Whatever you want, I can show it to you. We have several kinds of, all varieties of clothes.
Mama parshe sarvani santi. Bhavati kim kretmi chati?
Kim?
Bhavatau.
Bhavatau kim kretum?
Ichchataha. Dvivachane. Bhavati dvivachane vaktum ichchati. Bhavan. वदतु महोदय. भवान् शब्दाः वदतु.
भवन्तौ.
भवन्तौ.
अनन्तरं
भवन्तः.
द्वितीयविभक्ति
भवन्तौ.
भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः
भवतान्
भवन्तौ के क्रीणतुम् इच्छसि?
तदेव
एकः प्रश्नः अस्ति महोदय. भवान् इत्युक्ते पुल्लिङ्ग, भवती इत्युक्ते स्त्रीलिङ्ग. भवती नदीशब्दं, द्विवचनं विल् बि भवत्यौ, नो भवती भवत्यौ, एण्ड् फार् भवान् इट् विल् बि भवन्तौ.
सो भवन्तौ
भवन्तौ भवन्तौ एण्ड् भवत्यौ. बट् वेन् यु सेड् भवत्यौ, यु सेड् रैट् यु से भवतौ.
साधारणतया पुंलिङ्गे वदामः.
पुंलिङ्गम् इस् डिफाल्ट्.
उत्तमम्. अनन्तरं धन्यवादः महोदय. शोभा भगिनी, भवती करोति वा अत्र तृतीयं वाक्यं किं भवति?
तृतीयं भगिनि, पत्नी विक्रेता, पतिः युतकमपि ऊरुकम् एव इच्छामः. एतस्य वर्णं मास्तु. अस्यूमिङ्ग् दट् ही शोयिङ्ग् दट् एतस्य वर्णं मास्तु. श्वेतवर्णस्य युतकम् अस्ति वा? देन् पत्नी अहं कानिचन वाक्यानि रचितवती. पठामि वा भगिनि?
पठतु, श्रावयतु.
फ्रोम् बिगिनिङ्ग्. सो पत्नी, एतस्याः शाटिकायाः मूल्यं किं? विक्रेता, एतस्याः मूल्यं 100. पत्नी, शाटिकायाः मूल्यं बहु अधिकम् अस्ति. ऐ डोण्ट् हाव् ए फालो अप् फार् विक्रेता.
भगिनी, तस्याः पार्श्वे पर्याप्तं धनम् अस्ति वा नास्ति वा? शतं रूप्यकाणि सन्ति चेत् एव सा क्रेतुं शक्नोति, नो चेत् न क्रेतुं शक्नोति.
यदि विक्रेता says that bhagini, he'll be in trouble. Then tasyaha shatikayaha saha cholam asti va, that was then going forward
tatra atra pashyatu bhagini yadi tasyaha shatikayaha cholam cholam dadati va tatra शाटिकायाः चोलम् इति वद तस्य स्थाने
चोलः
अनुरूपचोलम् अनुरूपचोलम् इत्युक्ते किं
मेचिङ्ग्
अनुरूप मेचिङ्ग् तस्याः शाटिकायाः अनुरूपं चोलम्
अनुरूपचोलं ददाति
अनुरूपचोलम् ओके
यदि 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 भवती ददाति इति क्रियापदं योजितुमिच्छति चेत् तत्र चोलं ददाति वा इति वदामः. यदि भवती अस्ति इति क्रियापदं योजयित्वा वक्तुमिच्छति चेत् चोलः अस्ति वा
चोलः अस्ति वा दट्स् वाट् ऐ हेड् ओके चोलः अस्ति वा अण्ड्
भगिनि
न्यूनतररूप्यकाणि अनुरूपं कथमस्ति न्यूनतररूप्यकाणि अनुरूपं कथमस्ति
न्यूनतररूप्यकाणि भवती किं भवान् किं वक्तुमिच्छति इत्युक्ते
लेसर् मनि वट् इस् वट् डु यु हेव् न्यूनतररूप्यकाणि रूप्यकाणि अनुरूपं किमस्ति
तत्र अत्र पश्यतु महोदय न्यूनमूल्येन कोऽपि चोलः अस्ति चेत् दर्शयतु
मूल्यं
न्यूनमूल्येन कोऽपि चोलः अस्ति चेत् दर्शयतु भगिनि पठतु
अनन्तरं भगिनि एतस्य वाक्यं एतस्याः शाटिका के के वर्णे सन्ति साधु अस्ति वा भगिनि एषा शाटिका के के वर्णे
अन्येषु वर्णेषु अस्ति वा अन्ये वर्णेषु
So if I want to say what colors does this sari come in?
Kani varnani. Kani varnani.
Kani varnani. Oh, is that?
Atra esha shatika anye varne api asti va.
Anye varne.
Ka kim kim varne. Kim kim varne.
Atra ke varne te सप्तमी भवती जानाति एव
वर्णे सप्तमी किं किं वर्णे सन्ति उत्तमम् अस्ति वा
अस्ति अस्ति नो अस्ति
अस्ति किं किं
ये शाटिका शाटिका ये शाटिका
ओके सन्ति ऐ वास् यूसिङ्ग् बिकास् वर्णे इस् प्लूरल्
वर्णे इस् नाट् प्लूरल् नो
केवलं शोभा भगिनी भवती एव वदतु अन्य किञ्चित् चिन्तयन्तु अन्ये सर्वे अपि किञ्चित् चिन्तयन्तु भगिनी भवती श्रावयतु वाक्यानि
ओके वाट् ऐ एम् ट्रैङ्ग् टु आस्क् इस् सो इन् वाट् अदर् कलर्स् डस् दिस् सारी कम् सो ऐ सी हियर् द सारी इस् एकवचनं So, yeah, it would be Esha Shatika Kim Kim Varne Asti Eva.
Kim. Anantaram. Anantaram.
Anantaram. Vikreta. Esha Shatika Rakta Varne Asti. हरिद्रावर्णे अस्ति मे नीलवर्णे अस्ति नीलवर्णे अस्ति हा अस्तु नीलवर्ण नीलवर्णस्य शाटिका नीलवर्णस्य शाटिका
दर्शयतु अत्र पश्यतु अन्यत् प्रकारेण अपि वयं वक्तुं शक्नुमः एषा शाटिका मह्यम् अतीव रोचते अथवा एषा शाटिका उत्तमा अस्ति अतः एतां शाटिकां क्रेतुमिच्छामि
क्रेतुमिच्छामि
एषा शाटिका मह्यम् अतीव रोचते एषा शाटिका मम इष्टतमा शाटिका फेवरेट् सारी इष्टतमा करोतु महोदय
प्रियतमा
इष्टतमम् इष्टतमम् इत्युक्ते फेवरेट् इष्टतरम् इष्टतरम् इष्टतमम् इष्टतमम् इत्युक्ते मोस्ट् फेवरेट्
दट् मह्यं वाक्यं पुनः वदतु भगिनि
तत्र भगिनी रोचते इति क्रियापदम् उपयुज्य अपि वक्तुं शक्नुमः मह्यम् अतीव रोचते इत्युक्ते मह्यम् इति पदम् अहं शब्दस्य चतुर्थी रूपं तत्तु एकं विशिष्टं रूपम् अस्ति तत्र एषा शाटिका मह्यम् अतीव रोचते तथापि वयं वक्तुं शक्नुमः करोतु अन्यानि वाक्यानि श्रावयतु
पत्नी एतां शाटिकां मह्यम् अतीव रोचते इदम् एव क्रीणामि मीन्स् बै आल्सो रैट् भगिनि बै बै ऐ विल् पर्चेस्
क्रीणामि बै ओन्लि
क्रीणामि इदमेव क्रीणामि परन्तु मूल्यं तनिकं न्यूनं करोतु
मूल्यं न्यूनं करोतु
विक्रेता अस्तु भवती नवतिः एवं ददातु
अनन्तरम् अत्र अनन्तरं सः विक्रेता अन्तिमतया सः किं वदति अन्यानि वस्त्राणि इतोपि अन्यानि वस्त्राणि आवश्यकं वा सः वदति आवश्यकं
मास्तु पर्याप्तं एषा शाटिका अपि एतस्य चोलः इति मूल्येन ददातु
न्यूनमूल्येन ददातु
तेन विक्रेता अस्तु स्वीकरोतु पतिः अहम् एव एतस्य युतकम् अपि एतस्य उरुकं इच्छामि एतानि मूल्यम् एव न्यूनं करोतु यदि एतानि मूल्यम् एव न्यूनं करोतु तर्हि स्वीकरोमि
उत्तमं
विक्रेता न शक्यं महोदय शक्यम् अस्ति करोतु अस्तु महोदय स्वीकरोतु
उत्तमम् धन्यवादः पुनर्मिलामः.
धन्यवादः पुनः आगच्छतु
पुनः आगच्छताम्. अत्र पश्यतु भगिनी, आगच्छतु इति एकवचनरूपम्, आगच्छताम् द्विवचनरूपं,
पुनः आगच्छताम्.
उत्तमम्. अत्र तथा द्वौ अपि आनन्देन नूतनानि वस्त्राणि कृत्वा गृहं गच्छतः. भवती अपि एकां नूतनां शाटिकां क्रीत्वा भवती अपि गृहं गच्छतु. उत्तमं. तावदेव. अन्येषां पार्श्वे कानिचन नूतनानि वाक्यानि एतस्य सम्भाषणस्य कृते अस्ति चेत् श्रावयन्तु. पद्मिनी भगिनी, भवती कृतवती वा? भवती श्रावितुम् इच्छति वा कानिचन वाक्यानि एतस्मिन् विषये?
अहं न शक्नोमि लक्ष्मी भगिनी.
उत्तमं. भानुचैतन्यमहोदय, भवान् करोति वा कानिचन वाक्यानि, श्रावयति वा भवान्? श्रावयतु. भवान् किं किं लिखितवान्, श्रावयतु.
एतत् शाटिका बहु सुन्दरम् अस्ति.
एषा शाटिका बहु अत्र पश्यतु महोदय, अत्र पश्यतु, शाटिका इति पदम् आकारान्तस्त्रीलिङ्गपदम्, अतः एषा शाटिका बह्वी सुन्दरी अस्ति.
अहो,
सर्वाणि पदानि अपि बह्वी सुन्दरी अस्ति. अत्र पश्यतु, एषः रामः सुन्दरः बालकः. एतत् फलं मधुरं उत्तमं मधुरं फलं. तथा एव अत्रापि, एषा शाटिका बह्वी
सुन्दरी
इत्युक्ते
वदतु भगिनि.
एषात् वै एषात्
न नो न भगिनि, अहं मम उच्चारणदोषः मम उच्चारणदोषः नास्ति तत्र, एषा एव उक्तवती अहम्.
ओ, एषा
प्रथमाविभक्तिरूपं स्त्रीलिङ्गे.
ओके, यस्,
करोतु महोदय, करोतु. भानुचैतन्यमहोदय, करोतु.
आपणे बह्वी शाटिकाः सन्ति.
बह्वयः
आम् 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 बह्वयः बहुवचनं. बह्वयः शाटिकाः सन्ति.
बह्व्यः शाटिकाः सन्ति. उत्तमम्. अनन्तरं अन्यानि वाक्यानि श्रावयतु अस्ति चेत्, सन्ति चेत् वदतु. अंशसुधा भगिनी, भवान् चिन्तयित्वा वदति वा महोदय किञ्चित् कालानन्तरम्?
आम् 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 आम्.
वंशीसुधा भगिनी, भवती कर्तुमिच्छति वा?
भगिनी, इदानीं मम सर्वे अपि वाक्यानि सङ्गणकेन अस्ति, सङ्गणकं किञ्चित् क्लेशः भवति. अहम् अग्रिमकक्षां वदामि वा भगिनी?
उत्तमम्. अत्र पश्यतु भगिनी, मया लिखितानि सर्वाणि वाक्यानि सङ्गणके एव सन्ति.
आम् 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 भगिनि, आम् क्षम्यताम्.
मया लिखितानि
वाक्यानि सङ्गणकेन
सन्ति. मया लिखितानि वाक्यानि सर्वाणि अपि सङ्गणके सन्ति. उत्तमम्. अनन्तरम् उत्तमम्. उत्तमं रघुपति आचार्य महोदय भवतः पार्श्वे कानिचन नूतनानि वाक्यानि सन्ति चेत् श्रावयतु
क्षम्यतां भगिनि न कृतवान्
न कृतवान् अस्तु महोदय गीता भगिनी भवत्याः पार्श्वे सन्ति वा
न भगिनि सारि नेक्स्ट् टैम्
अस्तु अनन्तरं अनन्तरं सुचित्रा भगिनी भवत्याः पार्श्वे सन्ति वा वाक्यानि सन्ति चेत् वदतु
वाक्यानि सन्ति अहं प्रयत्नं करोमि पत्नी नूतनशाटिका अनुरूपचोलं दर्शयामि केन् ऐ सी ओके विक्रेतः देन् शी आस् विक्रेतः नमस्कारं भगिनि महोदय नूतनशाटिका अनुरूपचोलं कति रूप्यकं दर्शयतु वाट् इस् योर् प्रैस् रेञ्ज्
वाट् इस् योर् प्रैस् रेञ्ज्
कति रूप्यकम्
अत्र पश्यतु भगिनि रूप्यकं रूप्यकाणि रूप्यकाणि
कानि ओके रूप्यकाणि सो नूतनशाटिका अनुरूपचोलं कति रूप्यकाणि दर्शतु
कति रूप्यकाणि तत्तु एकं वाक्यं अन्यं वाक्यं रचयतु दर्शयतु
दर्शयतु
एतान् अत्र पश्यतु भगिनि एतान् महोदय वदतु सतीश् महोदय वदतु महोदय
विक्रेता इदं युक्तम् इदं युक्तमस्य मूलं 100 रूप्यकाणि अस्ति
अत्र पश्यतु महोदय शतं सर्वदा सर्वदा सर्वे मनसि स्थापयन्तु शतं रूप्यकाणि इत्येव वदामः शतम् इति पदं नपुंसकलिङ्गपदं सर्वदा सर्वदा शतम् इति पदं तथा एव वक्तव्यं शतं सहस्रं तथा एव वदामः अत्र अत्र सङ्ख्यायाः अधुना एव वयं सङ्ख्यानपि सङ्ख्याः अपि पठामः तत्र सङ्ख्यानां कृते विभक्तयः सन्ति अपि च लिङ्गं लिङ्गम् अनुसृत्य वदामः सङ्ख्याः शतं सहस्रं सर्वदा तस्य रूपभेदः कदापि न भवति शतं रूप्यकाणि सहस्रं रूप्यकाणि इत्येव वदामः
ओके इदं युक्तं शतं रूप्यकाणि इदं युक्तं मूल्यं शतं रूप्यकाणि अस्ति पति किम् 80 रूप्यकाणि पर्याप्तं सन्ति
अशीतिः रूप्यकाणि अशीति रूप्यकाणि
पर्याप्तं भवन्ति सन्ति
पर्याप्तमस्ति चेत् पर्याप्तम् अस्ति चेत् अशीति रूप्यकेण ददातु अत्र पश्यतु महोदय अत्र यदि वयं किमपि क्रेतुमिच्छामश्चेत् तत्र सर्वदा तृतीयाविभक्तेः उपयोगं कृत्वा एव वदामः पश्यतु अत्र न्यूनमूल्येन ददातु दश न्यूनमूल्येन ददातु तथा एव अशीतिरूप्यकेण क्रेतुमिच्छामि तथा एव तत्र तृतीयाविभक्तेः उपयोगं कृत्वा वदामः
धन्यवादः
करोतु करोतु
धन्यवादः
अन्यं वाक्यमस्ति वा
न
अधुना अत्र स्थगयामः अत्र अस्माकं पार्श्वे अन्यं सम्भाषणमपि अस्ति सर्वेषां पार्श्वे नूतनानि करपत्राणि सन्ति चेत् सर्वे उद्घाटयन्तु अहं कानिचन करपत्राणि प्रेषितवती यथा शाकानि फलानि पुष्पाणि सन्ति कः पठति अधुना भूमा भगिनी भवती पठितुम् इच्छति वा भवत्याः पार्श्वे अस्ति वा करपत्रं शाकानि नो चेत् कः वदति पद्मिनी भगिनी भवत्याः पार्श्वे सन्ति वा करपत्राणि, शाकानि, फलानि, पुष्पाणि तस्याः पार्श्वे अस्ति वा?
मम पार्श्वे
अस्ति भगिनि. अहं कार्यालये अस्ति, अहं केवलं शृणोमि.
उत्तमं
भगिनि.
भवत्याः पार्श्वे
शाकानि अस्ति, शाकानि सन्ति,
शाकानि सन्ति. पठतु. अहमपि भगिनि अत्र पश्यतु, अहमपि कानिचन नामानि न जानामि, अतः एव वयं मिलित्वा पठामः.
मरीचिका, चिलि, रेड् चिलि, आम्रं, मेङ्गो, आलाबुः, आलाबुः इष्ट, पम्प्किन्, and we say कूष्माण्डः, that is the ash gourd we say. ऊर्वारुकम्, that I don't know, is it cucumber?
Cucumber. Seems like.
Anantram.
Bimbi palam also is there, you know, that I thought it is cucumber. I don't know.
Bhagini.
Alanduh, onion.
अत्र उर्वारुकम् इत्युक्ते कुकुम्बर्.
उर्वारुकं कुकुम्बर्, भेण्डं, भेण्डि.
भवती एतं श्लोकं जानाति वा? उर्वारुकमिव बन्धनात् त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनात्. उर्वारुकमिव बन्धनात्, उर्वारुकम् इव एतान् बन्धनान् त्यक्त्वा मह्यं मोक्षं ददातु.
What happens, I can tell that in English.
Vadatu bhagini, vadatu.
This urvarukam vegetable, when it is not ripe, it is not going to fall off the creeper. It comes off a creeper. So when it is actually ripe and ready to leave, it'll just, the stalk just gives up, and then it just stays on the side of the creeper. It just gives up, and so it comes off. Like that, you give me moksha. When I am ready to get it, automatically everything will drop off from you, and you will receive you will get the moksha. Just like the urvarukam, how it gets, it leaves its
attached bandha, to the like, stalk.
So urvarukam is literally used in that shloka?
Yes, bhagini.
Yeah, urvarukam iva bandhanat.
It was the shloka meant that. Bhagini, dhanyavadaha bhagini.
Dhanyavadaha bhagini.
Thank you.
The actual meaning is that. Thank you, bhagini, once again. Anantram, patatu, palanduhu.
And bhendam, okra, that is ladies. रक्तफलं टोमेटो, हरितं केबेज्, पटोलः इति स्नेक् गौड्, वृन्ताकं एग् प्लाण्ट्, आलूकं पोटेटो.
इस् अ स्नेक् गौड् आर् बिट्टर् गौड्?
विच् वन्?
नो, स्नेक् गौड्
इस् करवेलः.
करवेलः.
Oh,
it's too shorter. But the patolaha, it's hard to see what it is in this picture.
It's hybrid it is.
It is coming from Shree Parasa.
Shobha Bhagini Vuktavati, tat samyak eva, atratha samyak na drishyate, parantu Bhagini, patolaha ichukte god only, some kind of god.
Okay.
God.
Not bitter god.
No, not bitter.
Yeah, god it is.
We have small things also in Tamil Nadu, you know, like that.
What is Haritam?
Bhagini?
Haritam?
Haritam, cabbage, I think.
Oh, cabbage.
Looks
Haritam,
like
cabbage.
Karvatu, Bhagini?
Alukam, potato. Lashunam, garlic. Bimbi phalam. I thought this is this one in a cucumber, I don't know. Bimbi palam means, I don't
know. No, it is Bimba palam. Yeah, thundekai, that's the bigger variety.
Oh,
bigger variety. I think.
Okay, okay. Karavelaha is bitter gourd. Chimbika, I don't know about this, you know, either. Actually,
maybe beans. Maybe beans.
Beans, beans.
Beans.
Puranaha, it is the same. Kind of, we say churanagadde in Kannada.
Elephant food.
Anantram?
Grinjanakam, carrot. Chatham, this is cauliflower, I think.
Cauliflower.
Katrakam?
Katrakam is...
Mushroom.
Mushroom.
Uttamam, bhagini. Anantram? Satish Mohade, Bhavan Karoti, Phalani?
Yeah, Phalani. Okay, just... Phalani. No, Phalani. Phalani.
Phalani.
Phalani. Amaram is mango. Rakt Phalam is tomato. Jambiram is lemon. Galingam is melon. Jambu Phalam is, we call in... Jamun, I don't know what with Jambu Phalam is jamun in our language. The Draksha is grapes. Madhu Karkataki is called papita. I don't know what we say. Papaya. Sevam is apple. Ananasam is pineapple. I don't know what is panasam.
Jackfruit.
Jackfruit. Okay. Narang phalam is orange. Kadali phalam is banana. And khujram is dates.
Khajuram
is dates. Kajwam is cashew. Amalkam is olive.
Nelikai.
Gooseberry.
Gooseberry. Okay. Uttamam. Anantram, kaha pushpani? Vamsi Sudha Bhagini. Dhanyavadam. Vamsi Sudha Bhagini. Bhavati karoti va?
Karani kare.
Bhagini sarve sangana kena asti. Haham kinchi shunavi. Adhya bahuni kashtane.
त्यजित् चिन्ता मास्तु भगिनि
आमां
भगिनि अहं करोमि
करोतु महोदय करोतु
कर्णीकारः वाट् इस् इट् एक्चुअली कर्णीकारः दुन् लेवेण्डर् इट् इस्
लुक्स् लैक् ए ट्री महोदय
सेवन्ति नो इट्स् दे सेपरेट् ओके
It's like the gulmohar, but it's yellow.
It's common in Karnataka, Bangalore.
Bangalore only?
No, Bangalore. You see those yellow flowers.
Don't know. Kamalam. Kamalam, lotus. Paranthi, it's... Paranthi
is... Idli po. If it's white, it is called that.
It's a round red flower that's used for
paranthi. Durga Puja, we use it actually. Paranthi, I think.
Individual flowers are used from it.
Anantram.
Alpalam. It's a ulpalam. Ulpalam.
Aham jana me utpalam. Ulpalam.
Atra sarve
sarvantu. Asadu iti manye.
Oh, atra mahode bhavan mudran dosha hasti iti chintitavan va. Bhavishetani mahode. Atra etat padam utpalam va.
Nightingale award.
Dhanyavadah mahode. Kevalam Raghupati mahode bhavan eva vadatu. Sarve shrunvantu. Vadatu mahode.
ulpalam kind of, I don't know what do you say, sevantika, drona pushpam, olia, which flower it is, champakam, delia, okay, olia, champakam, okay, champakam, suryakanti, Suryakanti, Patala Pushpam, it's rose, Japa Daswala, oh, I don't know what it is, Daswala,
Haibi,
okay, Shatakumbaha, Shatakumbaha, Mallika, Mallika, Naga Pushpam, Mandaram, Mandara, Ashokam,
अशोकः उत्तमं महोदय भवान् अत्र परिशीलितवान् वा अत्र कानिचन नामानि स्त्रीलिङ्गे सन्ति कानिचन पुंलिङ्गे सन्ति कानिचन नपुंसकलिङ्गे सन्ति अत्र पश्यतु महोदय पुष्पाणि प्रथमं पुष्पं तस्य नाम अस्ति कर्णिकारः
पुल्लिङ्ग
अनन्तरं पारन्ति
ईकारान्तस्य स्त्रीलिङ्ग नपुंसक सेवन्तिका स्त्रीलिङ्ग
स्त्रीलिङ्ग तथा एव अत्र अत्र तथा किमर्थं नाम दत्तमस्ति अहं न जानामि परन्तु अत्र शाकानि अपि तथा एव सन्ति कानिचन नामानि स्त्रीलिङ्गे सन्ति कानिचन पुंलिङ्गे कानिचन नपुंसकलिङ्गे सन्ति अत्रापि मरीचिका मरीचिका इति आकारान्तपदं कूष्माण्डः पुंलिङ्गे अस्ति तथा किमर्थम् इति अहं न जानामि केवलम् आस्वादार्थं पठामः अनन्तरम् अत्र एकं प्रश्नं पृच्छामि भवतः इष्टतमं पुष्पं किम् अथवा भवतः इष्टतमं शाकं किम् भवतः अभीष्टतमं फलं किम् इति वयं प्रश्नं प्रष्टुं शक्नुमः वाट् इस् युवर् फेवरेट् फ्रूट् वाट् इस् युवर् फेवरेट्
आम्रं
वदतु महोदय वाक्यानि वदतु रचयतु
मम मह्यम् आम्रफलं बहु रोचते
उत्तमम् अन्यं वाक्यं श्रावयतु
अस्माकं ग्रामे पनसं बहूनि पनसं पनसफलानि बहूनि सन्ति
उत्तमं
बहूनि पनस ओके नारङ्गकदलीफलं वयं वयं पूजार्थं कदलीफलं देवाय देवाय
निवेदयामि
वयं निवेदयामः
निवेदयामः वयं निवेदयामः
निवेदनीयम् अपि अपि साधु अस्तु
वदतु महोदय
निवेदनीयं
निवेदनीयम् अत्र पश्यतु महोदय निवेदयामि लट्लकारे उत्तमपुरुष एकवचनं निवेदनीयं तत्र एकः प्रत्ययः अस्ति अनियर् प्रत्ययः तव्यत् प्रत्ययः तथा प्रत्ययद्वयमस्ति यदि अनियर् प्रत्ययं योजयित्वा वदामश्चेत् पठनीयं गमनीयं गमनीयं खादनीयं तथा भवति यदि तव्यत् प्रत्ययं योजयित्वा वदामश्चेत् कर्तव्यं पठितव्यं गन्तव्यं खादितव्यं तथा भवति तत्र बहु उपयुक्तानि उपयुक्ताः प्रत्ययाः ते they are very useful pratyaya
bhedah
generally bhedah asti mahodaya किञ्चित् भेदः अस्ति तव्यत् प्रत्ययम् अनियर् प्रत्ययं द्वयोर्मध्ये.
भगिनि अहम् एकं वाक्यं प्रयत्नं करोमि वा?
करोतु भगिनि.
देवस्य प्रीत्यर्थे निवेदनीयम्.
निवेदनीयम्, उत्तमं.
देवस्य प्रीत्यर्थे अहं नैवेद्यं करोमि.
नैवेद्यं करो. अत्र पश्यतु,
फलस्य नैवेद्यं करोमि.
देवम् अत्र पश्यतु, अहं देवं निवेदयामि. अहं फलं देवं, अहं फलं देवं निवेदयामि. तत् समीचीनं. यथा भवती उक्तवती, फलं देवं निवेदनीयम्. निवेदनीयम् अनियर् प्रत्ययं योजयित्वा वक्तुमिच्छति चेत् निवेदनीयं.
निवेदनीयं,
तदपि समीचीनम्. अत्र पश्यतु, निवेदयति इति पदात् नैवेद्यम् इति रूपम् आगच्छति. यथा भवती जानाति एव, तत्र दशरथस्य पुत्रः दाशरथी, तथा एव मिथिला तथा एव तथितप्रत्ययाः इति वदामः, तथा एव निवेदयति इत्यस्मात् नैवेद्यं.
शीतं शैत्यम् इति एव.
तथा एव. उत्तमं भगिनि. यदि भवन्तः अन्यानि वाक्यानि रचितवन्तः चेत् श्रावयन्तु, नो चेत् अत्र शाकापणः इति सम्भाषणमस्ति, शीघ्रं कुर्मः. भवन्तः पार्श्वे भवतां पार्श्वे सन्ति चेत् वदन्तु वाक्यानि. भानुचेतिनी महोदय, भवान् कर्तुम् इच्छति वा, कानिचन वाक्यानि रचितुम् इच्छति वा?
क्षम्यतां भगिनी, अहं त्यजामि.
चिन्ता मास्तु भगिनी,
धन्यवादः.
भानुचेतिनी महोदय, भवान् करोतु.
मम इष्टतर शाकं, शाकः वा शाकं वा, करवेलः.
करवेलः, उत्तमम्. अत्र भवान् यद् वक्तुमिच्छति, मै फेवरेट्, यु वाण्टेड् टु से मै फेवरेट्, तत्र समीकरोतु, किञ्चित् समीकरोतु महोदय.
मम इष्टतमं शाकं करवेलः.
अत्र मम इष्टतमं शाकं करवेलः, उत्तमम्. अन्यानि वाक्यानि श्रावयतु.
सतीश् पाठ्य
वदतु महोदय. सतीश् महोदय, भवान् करोतु.
अहं सर्वाणि फलानि फलानि मम इष्टानि सन्ति. परं कदलीफलं मह्यम् अति रोचते, या मह्यम् इष्टतमम् अस्ति.
मह्यम् अतीव रोचते. कदलीफलं मह्यम् अतीव रोचते. सर्वाणि फलानि अहं खादितुम् इच्छामि. सर्वाणि फलानि मम प्रियतमानि. अहं सर्वाणि फलानि खादितुम् इच्छामि. उत्तमम्. अत्र एकं सम्भाषणमस्ति. शोभा भगिनी, भवती महिला इति वाक्यं वदतु. अनन्तरं गीता भगिनी आपणिकः. इदानीं पर्यन्तं सर्वे उक्तवन्तः वा? Did all of you get a chance to participate? Did all of you get a chance to participate?
With Palani Pushpani?
Uttamu. Atra, Shakapana Haiti Sambhashna Masti, Kinchit Shigram Kurmaha.
Apani.
महोदय शृणोतु महोदय अत्र करोतु भगिनि आपणिकः
शाकापणः आवश्यकं पर्याप्तं मास्तु स्वीकरोतु आपणिकः आगच्छतु किम् आवश्यकं महिला एतस्य
भगिनि शोभा भगिनी अपि करोतु
एतस्य कूष्माण्डस्य एतस्य कूष्माण्डस्य एक किलो परिमितस्य कति रूप्यकाणि
भगिनि गीता भगिनी वदतु
ओ ऐ सि ओके ओके ऐ एम् सारि ओके तस्य ऐ डिडन्ट् अण्डर्स्टाण्ड् तस्य किलो परिमितस्य अष्टरूप्यकाणि किलो परिमितस्य
अर्ध किलो परिमितम् आलुकं ददातु
कूष्माण्डः मास्तु वा
किलो द्वयमितं कूष्माण्डम् एक किलो परिमितं गृञ्जनकम् अर्ध किलो महामरीचिकां च ददातु वृन्ताकम् अपि एक किलो परिमितं विण्डनीकानि नष्टानि खलु उत्तमानि न आनीतवान् किम्
उत्तमानि विण्डिनकानि स्यूते एव सन्ति आवश्यकं किम्
किलोमात्रपरिमितं ददातु आहत्य कति रूप्यकाणि इति वदतु शीघ्रं गन्तव्यम्
ओके आहत्य आहत्य पञ्चसप्ततिरूप्यकाणि कारवेल्लं मास्तु वा
मास्तु वा तिक्तम् इत्यतः कारवेल्लं मम गृहे न खादन्ति पर्याप्तम् अस्मिन् स्यूते सर्वाणि स्थापयतु धनं स्वीकरोतु
परिवर्तः नास्ति किम् अस्तु स्वीकरोतु
उत्तमं भगिनी धन्यवादः अत्र वयं किञ्चित् पङ्क्तिशः पश्यामः साधारणतया यत्र शाकानां क्रयविक्रयणं भवति स एव आपणः वेरेवर् यु केन् सी द वेजिटेबल्स् आर् यु केन् सी द वेजिटेबल्स् यु केन् बै अण्ड् सेल् देम् दट् ईस् आपणः यत्र बहवः आपणाः सन्ति स एव विपणिः इत्युक्ते विपण्यां बहवः आपणाः सन्ति अनन्तरम् आपणे यः कार्यं करोति सः आपणिकः अत्र प्रथमं वाक्यं किमस्ति आगच्छतु किम् आवश्यकम् एतस्य कूष्माण्डस्य एककिलो परिमितस्य इत्युक्ते किम्
1 kilo
तत्र एककिलो परिमितस्य इत्युक्ते फर् 1 kilogram पर् के
कति रूप्यकाणि
पर् केजि इति वदामः पर् केजि इत्युक्ते एककिलो परिमितस्य इत्युक्ते पर् किलो पर् किलो एककिलो परिमितस्य कूष्माण्डस्य कति रूप्यकाणि अत्र अष्टरूप्यकाणि अनन्तरम् अर्धकिलो परिमितम् आलुकं ददातु आलुकम् इत्युक्ते
पोटेटो
अनन्तरं किलो कूष्माण्डः सर्वे जानन्ति वा कूष्माण्डः इत्युक्ते
वदतु
भगिनि किलोद्वयमितं कूष्माण्डम् एककिलो परिमितं गृञ्जनकम् इत्युक्ते केरट्स् उत्तमम् अर्धकिलो परिमितं महामरीचिकां ददातु महामरीचिका
मिर्चि बडिमिर्चि
केप्सिकम्
Does it just mean go ahead, this is the Shachitra Bhagini, sorry, go ahead.
Yeah, yahan par shakani mein mari chika is chili, right? Mahamari chika. Okay, okay, Bhagini.
Mahamari chika. Oh, okay, okay.
Atra अत्र यथा भानुचैतन्यमहोदय उक्तवान् अत्र महामरीचिका इत्युक्ते केप्सिकम् अनन्तरं वृन्ताकं जानन्ति वा विण्डीनकानि नष्टानि खलु विण्डीनकम् इत्युक्ते लेडीस् फिङ्गर् ओक्रा
भिण्डिकाम् आल्सो हा भगिनि
वेण्डेनकम् उत्तमानि वेण्डेनकानि स्यूते एव सन्ति इति सः वदति किलो वेण्डेनकानि किलो मात्रपरिमितं ददातु आहत्य कति रूप्यकाणि वदतु शोभा भगिनी
पञ्चसप्तति रूप्यकाणि पञ्चसप्त
57 अत्र पश्यन्तु एका भगिनी उक्तवती आहत्य इत्युक्ते किं तस्य उत्तरं ददातु कोऽपि आहत्य इत्युक्ते
होटेल्
अनन्तरम् एका भगिनी उक्तवती अत्र पञ्चसप्ततिः इत्युक्ते किं सम्यक्तया वदतु
75
पञ्चसप्तति
अत्र सप्ततिः इत्युक्ते 70 पञ्चसप्ततिः इत्युक्ते 75 अनन्तरम् अत्र सा कारवेलं क्रेतुं न इच्छति किमर्थं कारवेलं न क्रेतुम् इच्छति
भवती गृहे कोऽपि न खादन्ति
अत्र पश्यतु भगिनि तस्याः गृहे
कारवेलं किमपि न खादन्ति
अत्र तस्याः गृहे केपि
न खादन्ति
किमर्थं तथा यथा अत्र ध्वनिः अस्ति सर्वे किञ्चित् म्यूट् कुर्वन्तु कृपया शीघ्रं गच्छ समापयामः अत्र किञ्चित् ध्वनिः अस्ति यदि भवती तस्याः गृहे कोऽपि न खादति इति समीचीनं तथा एव तस्याः गृहे केऽपि खादितुं न इच्छन्ति तत्र कोऽपि इति पदम् एकवचने अस्ति केऽपि इति पदं बहुवचने तस्याः गृहे केऽपि न खादन्ति तस्याः गृहे कोऽपि न खादति किमर्थं ते न खादन्ति
बिटर् इस्
तिक्तम्
अस्ति
अतः तस्याः गृहे कोऽपि न खादति अतः खादन्ति अतः सा न क्रेतुम् इच्छति अनन्तरं ते सा अन्यानि शाकानि क्रीतवती अनन्तरं धनं दत्तवती गृहं प्रति गच्छति अत्र एकं पदमस्ति परिवर्तः इति अस्ति सर्वे जानन्ति वा परिवर्तः इत्युक्ते किं चेञ्ज् उत्तमम् अत्र एतत् सम्भाषणम् उत्तमं सम्भाषणमस्ति आवश्यकं पर्याप्तं मास्तु स्वीकरोतु एतानि पदानि योजयित्वा उत्तमरूपेण लिखितमस्ति अधुना अहम् एकं किञ्चित् वदामि सर्वे गृहं गत्वा किञ्चित् चिन्तयतु अहम् एकं
ekam prahelikam jadami. I am going to give you a riddle. Sarve shun ekvaram shunvantu. Samskrita bhashayam ekam prahelikam dadami. Prahelika ichukte, it's a riddle.
Riddle, riddle.
I want you to give me the answer. Sarve chintayantu. Apado duragami cha saksharo na cha panditah amukhah sphutavakta cha yo janati sa panditah. Aham vadami. Tasya ardhah kahiti vadami. Ekah asti. Saha apadah. Saha apadah ichukte tasya padah na santi. Parantu saha duragami chukte bahu duram gantum shaknoti. Anantaram saha saksharah. Saksharah ichukte akshara sahitah. Parantu saha panditah na. Saha apanditah. Anantaram saha amuk saha sphutavakta ichukte saha samyak bhashanam kartum shaknoti. Parantu amukhah ichukte tasya mukham nasti. Ichukte atra yatavata saha apadah parantu duragami saha saksharah parantu apanditah saha sphutavakta parantu tasya mukhameva nasti. Yah janati saha panditah. Saha kaha?
Microphone. Aham vadami. Aham vadami.
Smartphone.
Post,
Google.
Letter. 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 Patram. Patram. Letter.
Uttamam.
Patram. Letter.
Uttamam. Atra.
Patram. Patram.
Chaturdham vakyamasti. Yah janati saha pandita. Who know, whoever knows the answer for this question is a pandita. So,
ahatya kaha artah.
Can we apply to today's, can it be something like that also, Bhagini? Like if you're speaking to a microphone, it carries the words farther away, and but can it be applied?
Atra pashyatu Bhagini, atra saksharah. Aksharah ichukte tasmin aksharah
akshara asti.
Aksharah asti.
Shunvan,
shuyati. And also they don't have feet. That means they travel.
Feet.
Bahuduram.
Gatshiti. Atra. Uttaram asti. Atra. Uttaram kim ichukte. Samapatram adhava preshaka patram. Postcard.
Postcard.
Postcard, yes. Samskrita bhashayam postcard ichukte preshaka patram adhava samapatram.
Samapatram.
Ichukte atra pehelika kadam asti chet apado duragami cha saksharo na cha panditah amukhah sphutavakta cha yo janati saha panditah. Uttamam. Adhuna sthagayamah.
Dhanyavadah.
Ahati chukte kim mahode?
Ahati chukte Raghupati mahode vadatu?
In total, total, in total.
In total, ahat. In total.
Oh, I see, okay.
Any prashn? Do we have any other questions?
Bhagini,
is it Baha Baha or is it?
Vadantu?
Is it Bahavaha or is it Bahvaha? Bahavaha, right?
Bahavaha.
Bahu Bahuvachanam.
Atra pashyatu Bhagini. Aham kinchit vadami. Bahu iti padam. Pumlinge, strilinge, napumsakalinge api bhavati. Yadi strilinge vadamaschit bahvyaha. Bahvi. Bahvi. Bahvyaha. Tadha bhavati strilinge. Yadi napumsaklinge vadamaschat bahu bahuni.
Bahuni.
Bahuni. Tadha bhavati. Anantaram. Shrunatu bhagini. Kinchit shrunatu. Atra pumlinge vadamaschat bahu bahavaha.
गुरुशर्मा
गुरुशब्दवत्
धन्यवादः
उत्तमम् भगिनी वदतु भगिनी प्रश्नः अस्ति वा
निवेदन नैवेद्यम् ओके निवेदन जनरली इट् इस् यूस्ड् फार् लैक् यु नो रिक्वेस्ट् आर् you know it is offering also but generally like you know you're sending a something for official purposes or like you know you're requesting something so can nivedan also be used like you know for naivedyam like you know is it uchit
atra pashyatu bhagini tatrapi actually you are using the word in both the places in the same way even when you are doing naivedyam to God you are doing the same thing you are aham phalam nivedayami adhava mama pujam nivedayami that means you are conveying the same message in both the places
okay dhanyawad and can you also send that shloka on dharma on email please
do you have any other questions otherwise I will stop it and then we can talk if we need to do you have any other questions
na bhagini
uttamam sarvesham dhanyavadah namaskarah agrimai saptahe milamah
dhanyavadah